उद्यद्भानुसहस्रभास्वर परव्योमास्पदम् निर्मलज्ञानानन्दघनस्वरूपममल ज्ञानादिभिषड्गुणैः जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जादिभूषोज्ज्वलम् श्रीभूसेव्यमनन्तभोगिनिलयम् श्रीवासुदेवं भजे। आमोदे भुवने प्रमोद उत सम्मोदे च सङ्कर्षणम् प्रद्युम्नं च तथा निरुद्धमपि तान् संहारसृष्टिस्थितिः कुर्वाणान्मतिमुख्यषड्गुणवरैः युक्तां स्त्रियुग्मात्मकैः व्यूहाधिष्ठितवासुदेवमपि तम् क्षीराब्धिनाथं भजे। वेदान्वेषण मन्दराद्रिभरण क्ष्मोद्धारण प्रसृत प्रह्लादावन भूमिभीक्षण जगद्विक्रान्तयो यत्क्रियाः दुष्टक्षत्रनिबर्हणम् दशमुखाद्युन्मूलनम् कर्षणम् काळिन्द्या अतिपापकंसनिधनम् यत्क्रीडितं तन्नुमः यो देवादिचतुर्विधेषु जनिषु ब्रह्माण्डकोशान्तरे सम्भक्तेषु चराचरेषु च विशन् आस्ते सदान्तर्बहिः विष्णुस्तं निखिलेष्वणुष्वणुतरम् भूयस्सु भूयस्तरम् स्वाङ्गुष्ठप्रमितं च योगिहृदयेषु आसीनमीशं भजे। श्रीरङ्गस्थलवेङ्कटाद्रिकरिगिर्यादौ सितेष्टोत्तरे स्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासे दुषे अर्चारूपिणमर्चकाभिमतितः स्वीकुर्वते विग्रहम् पूजाञ्चाखिलवाञ्छितान् वितरते श्रीशाय तस्मै नमः। प्रातर्विष्णोः परत्वादिपञ्चकस्तुतिमुत्तमाम् पठन् प्राप्नोति भगवद्भक्तिम् वरदनिर्मिताम्।